एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रतिनिधि सभायाः गतदिवसीयो उपवेशेन दौ अध्यादेशौ स्वीकृतौ स्तः। उपवेशेन एतत् विक्रम वर्षीयौ यौन हिंसा विरोधिनाम् कतिचित् अधिनियमानाम् संशोधनाध्यादेशः, उद्दण्डनापराधोड्डण्डन कार्यविधि सम्बद्धानाम् कतिचित् अधिनियमानाम् संशोधनाध्यादेशश्च बहुमतेन स्वीकृतौ वर्तेते। तत्पूर्वम् सांसदेन प्रेम सुवालेन पृथक् अध्यादेशद्वयम् अस्वीकर्तव्यमिति निगद्य प्रस्तुतः प्रस्तावः बहुमतेन अस्वीकृतः आसीत्। पूर्वं प्रमुख प्रतिपक्षिणो नेकपा एमाले दलस्य सांसदैः उपवेश प्रारभणस्य अनुपदमेव समाघोषानुच्चार्य सम्भाषण मञ्चं परिवेष्ट्य च अवरोधो विहितः आसीत्। एमाले दलीय सांसदैः सततं समाघोषेषु उच्चारितेषु सत्सु सभामुखेन अग्निप्रसाद सापकोटा विधेयेन प्रतिनिधिसभायाः नियमावल्यां न्यायालये विचाराधीन विषये विमर्शनं न सम्भवति इति व्यवस्थां प्रति वारं वारं ध्यानमाकृष्य सभायाः सञ्चालनाय सहयोक्तुम् अनुरुद्धम् आसीत्। प्रतिनिधिसभायाः अपरोपवेश अद्य दिवा एकवादने वसति। नेपाली कांग्रेस दलस्य चतुर्दश महाधिवेशनस्य अन्तर्गतं सम्पन्नस्य निर्वाचनस्य मतगणनायाः परिणामाः प्राप्ताः सन्ति। गतसायं सम्पन्नायाः सुदूरपश्चिम क्षेत्रस्य स्वतन्त्रस्य केन्द्रीय सदस्यद्वयस्य पदस्य मतगणनायाः अनुसारेण यज्ञराज जोशी डाक्टर रणबहादुर रावलश्च, महिलायाः एकस्मिन् पदे सुशीला मिश्र भट्टश्च निर्वाचिताः सन्ति। कर्णाली प्रदेशस्य स्वतन्त्रस्य केन्द्रीय सदस्यद्वयस्य पदे कर्णबहादुर बुढा राजीव विक्रम शाहश्च, महिलायाः एकस्मिन् पदे जानकी सिंहश्च निर्वाचिताः सन्ति। पूर्वमन्त्री हृदयराम थानी एकेन मतेन पराजितो स्थिति कांग्रेस दलस्य केन्द्रीय निर्वाचन समितेः संयोजकः गोपाल कृष्ण घिमिरे अज्ञापयत। थारू समूहात् स्वतन्त्र केन्द्रीय सदस्यद्वय पदे योगेन्द्र चौधरी रामजनम चौधरी च, अस्मादेव समूहात् महिला सदस्यद्वय पदे कल्पना चौधरी जीवन राणा च निर्वाचिताः सन्ति। ह्य एव सम्पन्नायाः मतगणनायाः परिणामस्य अनुसारेण मधेस समूहस्य केन्द्रीय सदस्येषु अजय चौरसिया, विनोद चौधरी, चन्द्रमोहन यादवः, महेन्द्र कुमार रायः, दिनेश कुमार यादवश्च निर्वाचिताः सन्ति इति निर्वाचन समितेः सचिव जगन्नाथ श्रेष्ठः अबोधयत्। मधेस क्षेत्रस्य महिला समूहात् मुक्ता कुमारी यादव, मीनाक्षी झा, मञ्जु कुमारी यादव, नागिना यादवश्च केन्द्रीय सदस्य पदे विजयम् प्राप्तवत्यः सन्ति। मुस्लिम स्वतन्त्र समूहात् अब्दुल रजाक, अब्दुल सत्तार च, मुस्लिम महिला समूहात् जावेदा खातुन जागा च केन्द्रीय सदस्य पदे निर्वाचिता सन्ति। प्रथम प्रदेशात् स्वतन्त्र केन्द्रीय सदस्य पदे अमृत हरियालः, राजीव कोइराला च, महिला समूहस्य केन्द्रीय सदस्य पदे महेन्द्र कुमारी लिम्बु च निर्वाचिता सन्ति। एवमेव बागमती प्रदेशात् स्वतन्त्र केन्द्रीय सदस्य पदे ध्यान गोविन्द रञ्जिता, राजेन्द्र कुमार केसी राजन च, महिला समूहस्य केन्द्रीय सदस्य पदे उर्मिला नेपाल केसी च निर्वाचिता सन्ति इति नेपाली कांग्रेस दलस्य केन्द्रीय निर्वाचन समिति ज्ञापयति। ललितपुरस्य सानेपा वर्तिनी कांग्रेस दलस्य केन्द्रीय कार्यालय अवशिष्टानां समूहानां मतगणना विधीयमानास्ति एवं अद्ययावत् सर्वेषां समूहानां परिणामः प्राप्यते इति निर्वाचन समितेः सचिवः जगन्नाथ श्रेष्ठः ज्ञापयति। गृहमन्त्री बालकृष्ण खाँड निगदति एमसीसी नामधेयायाः अमेरिका देशीय सहयोग परियोजनायाः अग्रे वर्धापनम् सर्वकारस्य दायित्वम् वर्तते। ह्यो जनकपुर धामनी संचारकर्मीभिः सह भाषमाणः गृहमन्त्री खाँड अतर्कयत्। पूर्ववर्ती सर्वकारस्य समये परियोजनाय प्रक्रिया अग्रे सारिताः, नेपालस्य विकासाय परियोजनया सह सर्वकारेण संविदा च विहितेति हेतोः एतस्याः परियोजनायाः अग्रेसारणं सर्वकारस्य दायित्वमस्ति। असौ एमसीसी परियोजनया नेपालाय वैद्युत करणाय एतत् सम्बद्धाय परियोजनाय मार्गनिर्माणाय च अनुदानं प्रदीयमानम् अस्तीति ज्ञापितवान्। नेकपा एकीकृत समाजवादी दलस्य अध्यक्ष माधव कुमार नेपाल भाषते वामान्दोलनस्य नवीनोच्चतायं प्रापणम् आवश्यकं वर्तते। पोखरायां गतदिने आयोजिते नेकपा समाजवादी दलस्य गण्डकी प्रदेश स्तरीय मेलने अध्यक्षो नेपाल केवलं वामान्दोलनम् विचारश्च राष्ट्रस्य गरिमणे उच्चतां दातुं शक्नुत इति धारणां व्यक्तवान्। अध्यक्षो नेपाल विदेश शासनस्य पालकैः संविधानस्य सर्वोच्चतां स्वीकुर्वद्भिश्च जनैः सर्वोच्च न्यायालयस्य निर्णयः स्वीकर्तव्यः इति अतर्कयत। मेलने श्रमवृत्ति सामाजिक सुरक्षा मन्त्री किसान श्रेष्ठ अवदत् वर्तमान सर्वकारः जनमुखी कार्याणि कुर्वाणो वर्तते। नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली स्वस्य नेतृत्वस्य सर्वकारेण राष्ट्रिय विकासस्य लहरी आनीतेति कथयति। नेकपा एमाले दलस्य कपिलवस्तु शाखाय आयोजनायां ह्य बहादुरगंज स्थाने सम्पन्नायां बृहत् जनसभायां दल प्रवेशन कार्यक्रमे च अध्यक्ष ओली अगदत् जनपथ निर्माणस्य कार्यं प्राथमिकतायां संस्थाप्य अग्रे वर्धयितुं विशेष प्रयत्नं विद्यमानं वर्तते। अध्यक्ष ओली जन समग्र विकासस्य कृते कृष्याशैव औद्योगिक विकासाय सर्वैः मिलित्वा कार्यं कर्तुम् आवश्यकतां न्यश्चिनोत्। कार्यक्रमे एमाले दलस्य महासचिव शंकर पोखरेल एमाले दलेन नवीन जनादेशाय निर्वाचनम् अपेक्षितम् सदापि वर्तमान सर्वकार निर्वाचनात् भीतो स्थिति आरोपयत्। नेपाली कांग्रेस दलस्य नवनिर्वाचितो महामन्त्री विश्वप्रकाश शर्मा कथयति संविधानेन प्रदत्ताया संचार स्वतन्त्रताया कुण्ठन कार्यं स्वीकार्यं न भवति इति समाचारः।